ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। श्रीशुक उवाच, एवमेतन् निगदितं पृष्टवान् यद्भवान् मम नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणां। ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्, इन्द्रमिन्द्रियकामस्तु प्रजाकामप्रजापतीन्, देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुं, वसुकामो वसून् रुद्रान्, वीर्यकामोऽथ वीर्यवान्, अन्नाद्यकामस्त्वदितिं स्वर्गकामोदिते सुतान्, विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम्, आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्, प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ, रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम्, आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम्, यज्ञं यजेद्यशस्कामः कोशकामप्रचेतसम्, विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीं, धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितॄन् यजेत्, रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान्, राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत्, कामकामो यजेत् सोममकामः पुरुषं परम्, अकामः सर्वकामो वा मोक्षकाम उदारधीः, तीव्रेण भक्तियोगेन यजेत पुरुषं परम्, एतावानेव यजतामिह निःश्रेयसोदयः। भगवत्यचलो भावो यद्भागवतसङ्गतः, ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्रमात्मप्रसादौ त यत्र गुणेष्वसङ्गः, कैवल्यसम्मतपथस्त्वथ भक्तियोगः, को निर्वृतो हरिकथासुरतिं न कुर्यात्। शौनक उवाच, इत्यभिव्यारितं राजा निशम्य भरतर्षभः, किमन्यत् पृष्टवान् भूयो वैयासकीमृषिं कविम्, एतच्छुश्रूषतां विद्वन्सूतनोऽर्हसि भाषितुम्, कथा हरिकथोदर्का सतां स्युः सदसि ध्रुवम्। स वै भागवतो राजा पाण्डवेयो महारथः, बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे, वैयासकिश्च भगवान् वासुदेवपरायणः, उरुगाय गुणोदारा सतां स्युर्हि समागमे, आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ, तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया, तरवः किं न जीवन्ति भस्त्रा किं न श्वसन्त्युत, न खादन्ति न मेहन्ति किं ग्रामपशवोपरे, स्वविद्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः, न यत्कर्णपथोपेतो जातु नाम गदाग्रजः, बिलेबतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य, जिह्वासति दार्दुरिके वसूत न चोपगायत्युरुगाय गाथाः, भारः परं पट्टकिरीटचुष्टमप्युत्तमाङ्गं न मेन्मुकुन्दम्, शावौ करौ नो कुरुतः सपर्याम्, हरेर्लसत्काञ्चन कङ्कणौ वा, बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये, पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ, जीवञ्छवो भागवताङ्घ्रिरेणुं न जातुमर्त्योऽभिलभेत यस्तु, श्रीविष्णुपद्यामनुजस्तु लस्याः श्वसञ्छवो यस्तु न वेदगन्धम्, तदस्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः, न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहे सुहर्षः, अथापि धेयं गमनोऽनुकूलं प्रभाषसे भागवत प्रधानः, यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे तृतीयोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।